इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झा। अथ वार्ताः। सोमनाथमन्दिरस्य गतशताधिकवर्षाणाम् अस्तित्वम् देशस्य सुदृढसंस्कृतेः भावम् प्रतिबिम्बयति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। सः अवोचत् यत् पुनः पुनः आक्रमणेषु विपत्सु च अपि मन्दिरस्य निरन्तरम् उन्नतम् वर्तते। षड्विंशत्यधिकैकशततमे वर्षे जाते सोमनाथदेवालयस्योपरि प्रथम आक्रमणस्य सहस्रवर्षाणाम् ऐतिहासिकावसरे OP-8 इत्यस्मिन् निदर्शनं कुर्वन् प्रधानमन्त्री उक्तवान्। सोमनाथ शब्दं श्रुत्वा एव जनानां हृदयेषु मनस्सु च अभिमानस्य अनुभूतिः भवति। सः अवोचत् यत् एतद् देशस्य आत्मनः नित्यघोषः वर्तते, अपि च एतद् भव्यं मन्दिरं देशस्य पश्चिमतटे गुजरात राज्ये स्थितमस्ति। सोमनाथ मन्दिरस्य जीर्णोद्धारार्थं योगदानकर्तॄणां प्रयत्नानां प्रशंसां कुर्वन् प्रधानमन्त्री अवदत् यत् पुनः प्रतिष्ठापितं मन्दिरं भक्तानां कृते उद्घाटनानन्तरं 26,000 वर्षे 75 वर्षाणि पूरयित्वा अन्यं महत्वपूर्णं लक्ष्यं प्राप्स्यति। प्रधानमन्त्री मोदी अवोचत् यत् 26,000 वर्षे जनवरी मासे महमूद गजनी इत्येषः अस्य मन्दिरस्य उपरि आक्रमणं कृतवान्। हिंसात्मकेन आक्रमणेन आस्थायाः सभ्यतायाः च भव्यं प्रतीकं नाशयितुं प्रयतितवान्। श्रीमोदिना दृश्य श्रव्य माध्यमेन उक्तं यत् सहस्रवर्षाणाम् अनन्तरम् अपि सोमनाथस्य वैभवं पुनः स्थापयितुम् असंख्य प्रयत्नैः इदं मन्दिरम् अद्यापि तथैव वैभवयुतं वर्तते।
अगर हजार साल पहले खंडित हुआ सोमनाथ मंदिर अपने पूरे वैभव के साथ फिर से खड़ा हो सकता है तो हम हजार साल पहले का समृद्ध भारत भी बना सकते हैं। आइए इसी प्रेरणा के साथ हम आगे बढ़ते हैं, एक नए संकल्प के साथ एक विकसित भारत के निर्माण के लिए, एक ऐसा भारत जिसका सभ्यतागत ज्ञान हमें विश्व कल्याण के लिए प्रयास करते रहने की प्रेरणा देता है।
अत्रांतरे प्रधानमंत्री नरेन्द्र मोदी रविवासरे गुजरात स्थितस्य सोमनाथ मंदिरस्य भ्रमणं च करिष्यति। केन्द्रीय गृहमंत्री अमित शाहः अद्य नवदिल्ल्यां विज्ञान भवने पोषण सुरक्षायां कुपोषण निवारणे च कॉर्पोरेट सामाजिक उत्तरदायित्वस्य भूमिका इति विषयम् अधिकृत्य CSR सम्मेलनस्य उद्घाटनं विधास्यति। सम्मेलनस्यास्य उद्देश्यं तावत् बालेषु कुपोषणस्य निवारणं वर्तते। सममेव सहकार्यात्मक नवीन कार्यनीतीनां विषये विचार विमर्शः च वर्तते। NDDB इति राष्ट्रिय दुग्ध विकास मण्डलेन सम्मेलनमिदम् आयोजितम्। अत्रावधौ श्रीशाहः CSR उपक्रमस्य अन्तर्गतं शिशु संजीवनी कार्यक्रमं च आरप्स्यति। एषः कार्यक्रमः महाराष्ट्रस्य नागपुर जनपदस्य ग्रामीण क्षेत्रेषु विद्यमानेषु आंगनवाड़ी केन्द्रेषु अध्ययनं कुर्वद्भ्यः प्रायः 3,000 बालेभ्यः पोषण सहायतां प्रदास्यति। केन्द्रीय शिक्षा मंत्री धर्मेन्द्र प्रधानः अद्य नवदिल्ल्यां शास्त्रीय कन्नड तेलुगु मलयालम ओडिया भाषाणाम् उत्कृष्टता केन्द्रैः निर्मितानि 140 पुस्तकानि प्रकाशयिष्यति। एताः कृतयः भारतीय भाषा केन्द्रेण विकसिताः सन्ति। अस्मिन् कार्यक्रमे केन्द्रीय शास्त्रीय तमिल भाषा केन्द्रेण निर्मितायाः तिरुकुळल् ग्रन्थमालायाः 45 अंकयुक्तायाः आङ्गिक भाषायाः व्याख्यान श्रृंखलया सह 13 पुस्तकानां विमोचनमपि भविष्यति। Under-19 पुरुष क्रिकेट क्रीडायां भारतीय दलेन दक्षिण अफ्रीका दलस्य उपरि विजयम् अवाप्तम् इति वार्ताः।